अथ पञ्चमोऽध्यायः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छेययेतयोरेकं तन्मे ब्रूहि सुनिश्चितम् कर्मयोगश्च निःश्रेयसकरावुभो तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते स नित्यसन्न्यासी यो न त्वेति न काङ्क्षति निर्द्वन्द्वो हि महाभावो सुखं बन्धात् प्रमुच्यते योगौ पृथक् वाराः प्रवदन्ति न पण्डिताः एकमप्यास्थितः सम्यक् उभयो साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति सन्न्यासस्तु महाभावो दुःखमाप्तुम् अयोगतः योगयुक्तो मुनिः ब्रह्मा न चिरेणाधिगच्छति Thank you. नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि इन्द्रियाण्येन्द्रियार्थेषु वर्तन्त इति धारयन् लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्या केवलैः इन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा आत्मशुद्धये शान्तिमाप्नोति नैष्ठिके अयुक्तः कामकारेण फले सक्तो निबध्यते नादत्ते कस्यचित् पापम् ज्ञानम् येषां नाशितमात्मनः तेषाम् आदित्यवज्ञानम् प्रकाशयति तत्परम्। तदात्मानः तन्निष्ठाः तत्परायणाः गच्छन्ति अपुनरावृत्तिम् ज्ञाननिर्भूतकल्मषाः। शुनिचैव श्वपाके च पण्डिताः समदर्शिनः सर्गो येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिता। बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत्सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते। ये हि संस्पर्शया भोगाः दुःखयोनयत्येव ते आद्यन्तवन्तः मौतेय न तेषु रमते चक्रोतीकैव यः सोढुम् प्राक्शरीरे। ಕರ್ಮ ಸನ್ಯಾಸ ಯೋಗೋ ನಾಮ ಪಂಚಮೋಧ್ಯಾಯಃ